ततः प्रभाते विमले कृतकर्मा नराधिपः विश्वामित्रं महात्मानं आजुहाव स राघवम् तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा राघवौ च महात्मानौ तदा वाक्यमुवाचः भगवन् स्वागतं तेस्तु किं करोमि तवानर्घ्य भवानज्ञापयतु मा वाज्ञाप्यो भवता ह्यहम् एवमुक्तः स धर्मात्मा जनकेन महात्मना प्रत्युवाच मुनिश्रेष्ठो वाक्यं वाक्यविशारदः पुत्रौ दशरथस्यैमौ क्षत्रियौ लोकविश्रुतौ द्रष्टुकामौ धनुः श्रेष्ठम् यदेतत्त्वयि तिष्ठति एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति देवरात इति ख्यातो निमिर्ज्येष्ठो महीपतिः न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मनः दक्षयज्ञावधे पूर्वं धनुरायम्य वीर्यवान् रुद्रस्तु त्रिदशान्नो रोषात् सलीलमिदमब्रवीत् यस्माद्भागार्थिनो भागम् नाकल्पयत मे सुरः वराङ्गानि महार्हाणि धनुषा श्रातयामि वः ततो विमनसः सर्वे देवा वै मुनिपुङ्गव प्रसादयन्त देवेशम् तेषां प्रीतो भवत् भवः प्रीतियुक्तस्तु सर्वेषाम् ददौ तेषां महात्मनाम् तदेतद्देवदेवस्य धनुरत्नं महात्मनः न्यासभूतं तदा न्यस्तमस्माकं पूर्वजे विभौ अथ मे कृशतः क्षेत्रं लाङ्गलादुत्थिता ततः क्षेत्रं शोधयता लब्धा नाम्नासीतेति विश्रुता भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा वीर्यशुल्केति मे कन्या स्थापितेयमयो निजा भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम् वरयामासुरागत्य राजानो मुनिपुङ्गव तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम् वीर्यशुल्केति भगवन् न ददामि सुतामहम् ततः सर्वे नृपतयः समेत्य मुनिपुङ्गव मिथिलामप्युपागम्य वीर्यं जिज्ञासवस्तदा तेषां जिज्ञासमानानां शैवं धनुरुपाहृतम् न शेकुर्ग्रहणे इतस्य धनुषस्तोलनेऽपि वा तेषां वीर्यवतां वीर्यम् अल्पं ज्ञात्वा महामुने प्रत्याख्याता नृपतयस्तन्निबोध तपोधन ततः परम कोपेन राजानो मुनिपुंगव अरुंधन मिथिलां सर्वे वीर्य संदेहमागतः आत्मानमवधूतं मे विज्ञाय नृपपुंगवाः रोषेण महताविष्टः पीडयन् मिथिलां पुरीं ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः साधनानि मुनिश्रेष्ठ ततोऽहं भृशदुःखितः ततो देवगणान् सर्वांस्तपसाहं प्रसादयम् ददुश्च परमप्रीताश्चतुरङ्गबलं सुरः ततो भग्ना नृपतयो हन्यमानादृशो यजुः अवीर्या वीर्यसन्दिग्धः सामात्याः पापकारिणः तदेतन्मुनिशार्दूल धनुः परमभास्वरम् रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत यद्यस्य धनुषो रामः कुर्यादारोपणं मुने सुतामय्यो निजं सीतां दद्यं दाशरथेरहम् इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकंदे षट्षष्टितमः सर्गः।